इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्यारभ्य गुजरातराज्यस्य द्विदिवसीय यात्रायां भविष्यति। तत्र असौ आधारभूत संरचनानां परियोजनानां च शिलान्यासम् उद्घाटनं च करिष्यति। अद्य सायंकाले एकता नगरे 80+200 कोटि रूप्यकाणां विकास परियोजनानां उद्घाटनं विधास्यते। परियोजनानाम् उद्देश्यं पर्यटनस्य संवर्धनं संशोधनं च इति वर्तते। श्रीमोदी अत्रावसरे आरम्भ इत्याख्यस्य षष्ठम संस्करणस्य 99वें कॉमन फाउंडेशन कोर्स इत्येतस्य अधिकारी प्रशिक्षून् सम्बोधयिष्यति। एतस्मिन् आरम्भ नामाभिधेयके भारतस्य 16 प्राशासनिक सेवानां भूटान देशस्य च 33 प्राशासनिक सेवानां 350+600 अधिकारी प्रशिक्षव सम्मिलिता सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः धन्वन्तरी जयन्त्याः नवमस्य आयुर्वेद दिवसस्य च अवसरे नवदिल्ल्यां प्रायशः 50+800 कोटि रूप्यकाणां स्वास्थ्यक्षेत्र सम्बद्धानां बहुविध प्रकल्पानाम् उद्घाटनं शिलान्यासः च कृतः। प्रधानमन्त्री आयुष्मान भारत प्रधानमन्त्री जनारोग्य योजनायाः प्रमुख योजनायाः रूपेण 70 वर्षतः अधिक वयस्कानां सर्वेषां वरिष्ठ नागरिकाणां कृते स्वास्थ्य व्याप्ति विस्तारम् अपि प्रारब्धवान्। एतेन सर्वेषां वरिष्ठ नागरिकाणाम् आयस्य विचारं विना स्वास्थ्य रक्षणं प्रदातुं साहाय्यं मेलिष्यति। भारतस्य प्रथमस्य अखिल भारतीय आयुर्वेद संस्थानस्य द्वितीय चरणस्य उद्घाटनम् अपि श्रीमोदी अकरोत्। प्रधानमन्त्री ह्यः विभिन्नेषु प्राशासनिक विभागेषु संघटनेषु च नवनियुक्तेभ्यः युवभ्यः 150,000+ नियुक्तिपत्राणि समर्पितवान्। प्रधानमन्त्री श्रीमोदी प्रोक्तवान् यत् प्रशासनेन आत्मनिर्भर भारतस्य दिशि अनेकानि महत्वपूर्ण कार्याणि विहितानि। अन्तरिक्षं समेत्य विद्युद्वाहनं यावत् सर्वेषु प्रौद्योगिकीक सम्बद्धेषु क्षेत्रेषु मेक इन इण्डिया इति उपक्रमः अपि वर्धितः। श्रीमोदिना अग्रे प्रोक्तं यत् भारतं विश्वस्य तृतीया वर्धमाना अर्थव्यवस्था भविष्यति। अन्तर्जालीय माध्यमेन आयोजितं समारोहं सम्बोधयन् असौ प्रावोचत् यत् प्रशासनं युवभ्यः अधिकाधिकं वृत्त्यवसरान् प्रदातुं प्रतिबद्धं वर्तते। भगवतः श्रीरामस्य नगर्याम् अयोध्यायां दीपोत्सवः महदुत्साहेन आचरिष्यते। आशास्यते यत् अयं दीपोत्सवः भव्यं भविष्यति। यतोहि उत्तरप्रदेश प्रशासनेन सरयू नद्याः तटे 28,00,000 यावत् दीपान् प्रज्वाल्य नवीनं कीर्तिमानं निर्मास्यते। सम्पूर्णा नगरी एषा दीपोत्सवाय उत्सुका उत्साहिता चास्ति। अपि च अस्मै आयोजनाय अयोध्यानगरी सर्वविधप्रकारेण सज्जास्ति। महाराष्ट्रराज्ये एकलचरणीय मतदानाय अपि च झारखण्डराज्ये द्वितीयचरणाय विधानसभा निर्वाचनाय ह्यः नामाङ्कनपूरणप्रक्रिया सम्पन्ना। एतयोः द्वयोः राज्ययोः नामाङ्कनपत्राणां निरीक्षणकार्यम् अद्य भविष्यति। प्रत्याशिनः नवम्बर मासस्य प्रथमदिनांकपर्यन्तं स्वीय नामांकन प्रत्यावर्तनं कर्तुं शक्यते। महाराष्ट्रस्य 80+200 विधानसभाक्षेत्रेभ्यः तथा च झारखण्डस्य द्वितीयचरणस्य 38 विधानसभासनेभ्यः मतदानं आगामि मासस्य 20 दिनांके भविष्यति। झारखण्ड महाराष्ट्र राज्ययोः विधानसभा निर्वाचनस्य मतगणना नवम्बर मासस्य 23 दिनांके भविष्यति। इज़राइल देशस्य संसदा नेसेट इत्यनेन इज़राइल देशे फिलिस्तीन देशस्य शरणार्थिभ्यः संयुक्त राष्ट्रस्य सहायोद्धार कार्यं कर्तुं प्रतिबन्धः कृतः। अपि च महिलानाम् एकदिवसीय क्रिकेट प्रतिस्पर्धायां अहमदाबाद नगरे भारतेन न्यूजीलैण्ड दलं 8 स्तोभैः पराजितम्। इति वार्ताः।